चित्रं द्वाविंशति द्वा मार्गः प्रभु ईशुष्य शाश्वतजीवनार्थं तस्य शिक्षणा ददाति चाकेन पापाः विस्मरयन्ति मार्गेण तस्य ज्ञानं निमग्नम् किमेव युष्माकं सर्वानां तत् पापस्य रूपं सन्ति युष्माकं सर्वानाम् आदामस्य रूपेण आदामस्य द्वारा युष्मान् इदं लोकेषु आगच्छयन्ति कठिनस्य मार्गेण युष्माकं स्वर्गेषु निरन्तरा शाश्वतजीवनं प्राप्तं सा अदं सहायनेषु त्वं गच्छन्ति तत् ईश्वरस्य निर्णयम् ईशस्यो वद किं युष्माकं सर्वमार्गं परिचयन्ति सत्मार्गेषु अहं प्रयाणं निर्णयं त्वं पश्यन्ती इदं चित्रेषु एकं कृषेणं सत्मार्गेषु त्वं प्रयाणं निर्मितं युष्माकं तत् मार्गेण प्रवेशयति युष्माकं पापानां किम् अङ्गीकरणं कुर्वन्ति च त्वमेषु पापानां पापस्यं दूरमार्गेषु ईशस्य मृत्येषु विश्वासं कुर्वन्ति सर्वजनानां तेषु पापस्य मार्गं विस्मरयन्ति नानिच्छन्ति स्वर्गस्य मार्गं तेषु बहु कठिनतरम् आसीत् तेषु तस्य विसर्जितमार्गेण तत्रं प्रयाणगच्छयन्ति तत् अनन्तरम् आकाशेषु आरोहणं नरकमार्गेषु तत् पतति त्वं किं मार्गेषु प्रयाणं निर्णयं स्वीकरितु त्वम् ईश्वरस्य किं मा वदति त्वम् इदं विधानं वद प्रभु ईश्वरः त्वं महंती च पवित्रः च अहम् इदं वार्ता श्रूयन्तं त्वम् एकः पापः अहम् ईशस्य मरणेषु विश्वासं कुर्वन्ति अहं विश्वासं कुर्वन्ति सा अहमस्य शिक्षार्थं तस्य भुजस्कन्धेषु स्वीकरिं त्वस्य कृपेषु अहमेवं क्षमयति अहमेव पापानां परिशुद्ध आचरणं त्वं करोति त्वम् अहं तस्यस्य सन्तानरूपेण निर्मितवान् अहं त्वमेव मार्गम् अनुसरं निर्णयं करोति अहं तस्य मार्गेण प्रयाणं कुर्वन्ति इच्छति च जीवनम् इच्छन्ति तत् प्रभु ईशस्य युष्मां पश्यति केन समयेन तत्समयात् अहं गच्छति स्वर्गेण नमो नमामि प्रभु।